उदप्रदोनवयो रक्षमाणा वावदतो अभ्ययस्येव घोषाः यदि भ्रजोरार्मजो मदन्तो बृहस्पतिमभ्यार्कानावन् सङ्गोभिराङ्गिरसो रक्षमाणो भगजिवेदर्यमनम् निनाय जने मित्रो न दम्पति अनग्निबृहस्पते वाजजासूङ्ग्रीवाजौ साध्वर्यादिनीर्षिरास्पार्हा सुवर्णाः अनभज्यरूपाः बृहस्पतिः पर्वतेभ्यो पितूर्यानिर्गावूपेयवमिवस्थिभिः आवृषायन्मधूनृतस्य योनिममक्षिपन्नर्तवृत्तामीपद्योः बृहस्पतिरुद्धरन्नस्मानोगा भूम्याहुग्ने भवित्वसम् विभेद अपज्योतिरातमो अन्तरिक्षादुद्रस्यपालमभवात आजत् बृहस्पतिरनमृस्या बलस्याभ्रमे भवात आचक्रागाः यदा बलस्य बीजतोजसम्भेद्बृहस्पतिरग्नितपोभिरङ्कैः सद्भ्यन्न जग्पापरिविष्टमादावेन्निधीन्द्रगृणो दुःश्रियानाम् बृहस्पतिरमदहित्यदासाम् नाम स्वीराम् सदा ने गुहायत् आण्डेव भित्त्वा स गुणस्य गर्भमुदुःश्रियाः पर्वतस्यत्मनायत् अस्नावीनद्धम् मधुपर्यमस्यन्मत्स्यन्न धीरबुदनिक्षियन्तम् निष्टज्जभारतपदन्न वृक्षात् बृहस्पतिर्विरवेनाभिकृत्य सोढामाविन्दः स स्वा असो अग्निम् सो अर्केण विभवाधेतमांसि बृहस्पतिर्गोपुषो बलस्य निर्मज्जानम् न पर्वणोजभार किमेव पन्नामूषितामनानि बृहस्पतिना कृपयद्बलोगाः अनादकृत्यमा पुनश्च कारयात् सूर्यामासामिध उच्चरादः अभिश्यावन्नकृशानेभिरस्त्वम् नक्षत्रेभिः पितरोद्यामापिंसन् तात्यान्तमो अदधर्जोतिरहम् बृहस्पतिर्भिरद्रिम् विदद्गाः इदमकर्म नमो अभ्रियायः पूर्वीरन्वानो न वीति बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स कृन्नावयोधात्